नमस्सर्वेभ्यः. अद्य प्रौढमनोरमायाः अच्छन्धिप्रकरणे द्वितीयः पाठः, फेब्रवरी मासस्य प्रथमः दिनाङ्कः. येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. ध्यायन् ध्यायं परं ब्रह्मस्मारं स्मारं गुरोर्गिरः. सिद्धान्तकौमुदी व्याख्यां कुर्मः प्रौढमनोरमाम्. Before we start, I am sorry for those who are listening to the recordings. I have not been able to upload the recordings or the notes of last class yet. I had limited access to the net this week and was also sort of busy. So I will be uploading the recordings of today's and last week's class after today's class as soon as possible. So we will start with the class. So before we start, we will recap what we have done. So I would like to go back to the beginning of Samnya Prakarana and read a bit of the text from there before we come back to Atsandhi Prakarana. Please remember, it's very important to be able to read the text and follow it in texts like this, in any text obviously which we are studying. That's very, very important to be able to read it correctly and follow it as the text is being read without the help of notes or commentary or whatever. The first time it is okay, but as we move on, we should aim at developing that capacity. So we will be reviewing a bit of the earlier classes, say starting from Samnya Prakarana in each class, and then do a review of last class, and then move on to the what we have to do today. So I'll read a bit of the Mula from the Samnya Prakarana. I hope all of you have a copy of the text or a soft copy with you. I had uploaded a soft copy of Samnya Prakarana. The rest I will upload in probably a couple of days. So if you don't have a hard copy of the text, please make sure you at least have a soft copy and you follow me as I read. Hayavarat hakaropadeshah at ash hash in grahaneshu hakarak grahanarthah arhena advyavayepi iti natvam devah santi bho bhago iti roh yatvam देवो हसति हशित इत्युत्वम् लिलिहिद्धे लिलिहिद्धे विभाषेटः इति वाढः हल् इदं सूत्रं वल् रल् झल् शल्षु हकारग्रहणार्थम् रुदिः स्वपिः रुदादिभ्यः सार्वधातुके इति वलादिलक्षणः इत् स्निहित्वा स्नेहित्वा रलो व्युपधात् इति वाकित्वम् अदाग्धाम् झलो झलि इति सकारलोपः अलिक्षत् शल इगुपधात् इति क्षः हलन्त्यम् सूत्रे अन्त्यमिति हलि अन्त्यम् इति विग्रहे सप्तमी इति योगविभागात् सुप्सुपा इति वा समासः इति भावः यद्वा षष्ठी तत्पुरुषोऽयम् स्यादेतत् हलित्येकशेषस्यैव तन्त्र आवृत्ति एकशेषान्यतममस्तो अस्य लि इति च व्याख्यास्यते सामीप्यम् षष्ठ्यर्थः यद्वा मास्तु तन्त्रादि अस्तु समाहारद्वन्द्वो हल् च लु च इति लकारस्य संयोगान्तलोपः इति चेत् मैवम् आद्ये समासस्य क्लिष्टत्वात् न हि ब्राह्मणकम्बलः इत्यादौ ब्राह्मणसमीपवर्ती अन्यदीयः कम्बलः प्रतीयते न वा चित्रकुशब्दाच्चित्रकवीणाम् समीपवर्ती वृक्षादिः प्रतीयते अत एव अनन्तरादिषु न समासः अनभिधानात् इति स्पष्टमाकरे किम् बहुना ब्राह्मणस्य कम्बलः चित्रागावोऽस्य इति व्यस्तप्रयोगोऽपि तत्रानिष्टः द्वितीयेऽपि संयोगान्तलोपो दुर्लभः यणः प्रतिषेधारम्भात् तत्प्रत्याख्यानपक्षेऽपि झलो झलि इत्यतः झल् ग्रहणम् अपकृष्य झलो लोपविधानाच्च किञ्च पदार्थबोधम् विना वाक्यार्थबोध असम्भवेन हल् प्रत्याहारसिद्धेः प्राक् एतत्सूत्रार्थ अबोधे प्रसक्ते तदुद्धारार्थोऽयम् यत्नः अस्य अञ्चावस्थायां हल् शब्दार्थ अप्रसिद्धौ द्वन्द्व एव दुर्लभः सः विवक्षाया असम्भवात् तस्मात् यथोक्तमेव न्याय्यम्। इदानीम् अत्सन्धिप्रकरणं किञ्चित् पश्यामः। गतकक्ष्यायाम् आरब्धं प्रकरणम् आदौ इको यणचि इति सूत्रम्। तत्र इक् यण् चत्वारः इकः चत्वारः यणः तस्मात् यथासङ्ख्यमनुदेशस्समानाम् इत्यनेन स्थान्यादेशनिर्णयः इति मतस्य निराकरणम् कृतं भट्टोजी दीक्षितेन। कथं क्रियते? प्रत्याहारेषु तद्वाच्यवाच्ये निरूढा लक्षणा। प्रत्याहारः कश्चित् प्रत्याहारः अक् अच् इत्यादयः तत्र तद्वाच्यवाच्ये प्रत्याहारवाच्याः माहेश्वरसूत्रस्थाः वर्णाः तद्वाच्याः तत्सवर्णाः अनुदित्सवर्णस्य च प्रत्ययः इत्यनेन दीर्घप्लुतादयः। तद्वाच्यवाच्ये अर्थात् दीर्घप्लुतारीणामपि ग्रहणं भवति प्रत्याहारैः। तत्र किं प्रमाणम् इत्युक्ते प्रत्याहारेषु तद्वाच्यवाच्ये निरूढा लक्षणा दीर्घाद्यसि च इति ज्ञापकात् द्वादिभ्यः इति निर्देशाच्च। दीर्घाद्यसि च इत्यनेन दीर्घात् परस्य पूर्वसवर्णदीर्घः निषिध्यते। पूर्वसवर्णदीर्घप्राप्तिस्तु प्रथमयोः पूर्वसवर्णः अकः प्रथमाद्वितीययोः अचिपरे। यदि अक्प्रत्ययेन दीर्घाणां ग्रहणमेव न स्यात् तर्हि दीर्घाद्यसि च इति निषेधः व्यर्थः। व्यर्थं सद् ज्ञापयति तद्वाच्यवाच्ये निरूढा लक्षणा इति। अपि च ल्वादिभ्यः इति निर्देशात्। ल्वादिभ्यः इति सूत्रमस्ति लू आदिभ्यः इति स्थिते यणादेशः कृतः पाणिनिना। यदि इको यणचि इत्यत्र इच्छब्देन दीर्घाणां ग्रहणं न स्यात् तर्हि लू आदिभ्यः इति स्थिते यण्सन्धिरेव न स्यात्। अतः प्रत्याहारैः सर्वदा दीर्घाणां सर्वेषां सवर्णानां ग्रहणं भवति इति ज्ञायते। तेन किं भवति? तेन इक्शब्देन षट्षष्टिः गृह्यन्ते, यण्शब्देन सप्त। इकः इ उ ऋ ल तत्र इकार उकारयोः प्रत्येकम् अष्टादश भेदाः, ऋकार लकारयोः आहत्य त्रिंशत्, मिलित्वा षट्षष्टिः इकः भवन्ति स्थानिनः। यणः सप्त भाव्यमानेनापि गुणा गुणान यण क्षम्यताम् भाव्यमानेनापि यण गुणानाम् अभेदकत्वात्। तदेव उक्तम् भाव्यमानत्वेन सवर्ण अग्राहकत्वेऽपि भाव्यमानेन सवर्णानां ग्रहणं न इति परिभाषा अस्ति। अणुदित् सवर्णस्य च अप्रत्ययः अविधीयमानः अणु उदित्य सवर्णस्य संज्ञा स्यात्। अथ यत्र विधीयमानत्वमस्ति तत्र सवर्णग्रहणं न भवति इति परिभाषा। तथापि गुणानाम् अभेदकत्वेन अभेदका गुणाः इत्यपि परिभाषा। गुणाः नाम अनुनासिक निरनुनासिक उदात्तानुदात्तस्वरितादयः अभेदकाः, भेदं न कल्पयन्ति इति परिभाषया अनुनासिकानामपि अवलानां ग्रहणात्। अतः य वल इत्येतेषां प्रत्येकं भेदद्वयं रेफस्य एकम् आहत्य सप्त, यण्शब्देन सप्तानां ग्रहणं भवति। अतो नास्ति यथासङ्ख्यम्। स्थानिनः षट्षष्टिः आदेशाः सप्त इत्यतः यथासङ्ख्यत्वं नास्ति, बिकास् दे आर् नाट् द सेम् इन् नम्बर्स्। न च लक्ष्यार्थबोधात् पूर्वभाविनं शक्यार्थबोधमादाय यथासङ्ख्यमस्तु इति वाच्यम्। लक्ष्यार्थात् पूर्वं शक्यार्थः, आल्वेज् इट् इस् द शक्यार्थ विच् इस् अण्डर्स्टुड् फस्ट् अण्ड् ओन्ली लेटर् वि कम् टु द लक्ष्यार्थ वेन् एवर् वि यूस् दिस् लक्षण। सो आदौ शक्यार्थबोधवेलायाम् इक् इत्युक्ते साक्षात् चत्वारः माहेश्वरसूत्रस्थाः वर्णाः, तथैव यण् इत्युक्ते चत्वारः माहेश्वरसूत्रस्थाः ज्ञायन्ते। ततः सवर्णग्रहणेन इक्षब्देन षट्षष्टिः यणा सप्त इत्यस्तु, शक्यार्थबोधवेलायामेव यथासङ्ख्यत्वेन सान्यादेशनिर्णयः अस्तु इति चेत् न किमर्थम् न तो लक्ष्यार्थबोधा पूर्वभाविनम् शक्यार्थबोधम् आदाय यथासंख्यमस्तु इति वाच्यम् एवमपि तृतीय चतुर्थाभ्याम् ऋकार लकाराभ्याम् प्रत्येकम् त्रिंशदुपस्थितौ लवर्णानाम् रेफादेशस्य ऋवर्णानाम् लादेशस्य च प्रसंगात्। ऋकारस्य रेफः इत्युच्यते शक्यार्थबोधवेलायाम्। ततः ऋवर्णेन ऋलुवर्णयोर्मिथः सावर्ण्यम् वाच्यम् इति सावर्ण्यात् लकारस्यापि भेदाः दृश्यन्ते। ऋ इत्यनेन त्रिंशताम् ग्रहणे ऋकारस्य यो आदेशः रेफः सः लकारस्यापि स्यात्। एवमेव लकारस्य यः आदेशः लकारः सः ऋकारस्यापि स्यात् इति संकरः प्राप्नोति। तस्मादिह स्थानेन्ततमः इति सूत्रेणैव इष्टसिद्धिः इत्यभिप्रेत्याः स्थानतान्तर्यादिति। अत एव कौमुद्यामुक्तम् स्थानतान्तर्यादीकारस्य यकारः इति। अग्रिमम् सूत्रम् दृष्टमस्माभिः अनचिच। अनचिच इत्यनेन द्वित्वम् विधीयते तच्च विकल्पेन। द्वे वा इति यरोणुनासिक इति सूत्रात् वाग्रहणम् अनुवर्तते इति नाज्झलौ इति सूत्रे कैयटः। एवं च तथा सति किं भवति यदि द्वित्वं वैकल्पिकं तर्हि तत्र सूत्रत्रयमस्ति त्रिप्रभृतिषु शाकटायनस्य सर्वत्र शाकल्यस्य दीर्घादाचार्याणाम् इति सूत्रत्रयं द्वित्वनिषेधार्थं प्रवृत्तम्। तदपि कस्यचिदाचार्यस्य मते द्वित्वं निषिध्यते पाणिनिमते तु द्वित्वं प्रवर्तते इत्यतः विकल्पसिद्ध्यति। विकल्पसाधनार्थं प्रवृत्तं सूत्रत्रयम्। यदि अनचिच इति द्वित्वमेव विकल्पेन विधीयते तर्हि तेषां सूत्राणां वैयर्थ्यम्। एवं च सर्वत्र शाकल्यस्य इति सूत्रं तत् प्रपञ्चभूतं पूर्वोत्तरसूत्रद्वयं च नारम्भणीयम् इति भावः। कस्यचिन्मते एषु सूत्रेषु अथवा सर्वत्र शाकल्यस्य इत्यस्य शाकल्यग्रहणं पूजार्थम्। पूजार्थं नाम विकल्पसाधनार्थम् आचार्यस्य नाम ग्रहणं न, केवलं गौरवसूचकम् इति। यत्तु दीर्घादाचार्याणाम् इति सूत्रे आचार्यग्रहणं पूजार्थम् इति अभिप्रेत्य वाक् इति भाष्योदाहृते विकल्पे उपपत्तिचिन्तार्थं क्षिष्यन्ते तन्मुधैव पूजार्थतायाः प्रामाणिकैः अनुक्तेः। यदि दीर्घादाचार्याणाम् इति सूत्रे आचार्यग्रहणं पूजार्थं तर्हि निषेधः नित्यः स्यात्, दीर्घात् परस्य द्वित्वं न स्यात्। तथा सति वाक् इत्यत्र द्वित्वविकल्पः न सिध्यति। तन्मुधैव पूजार्थतायाः प्रामाणिकैः अनुक्तेः। त्रिप्रभृतिषु इति सूत्रे शाकटायनग्रहणस्यापि तथापत्तेः। किञ्च दीर्घादाचार्याणाम् इत्यत्र यथा तथा त्रिप्रभृतिषु शाकटायनस्य इत्यत्र शाकटायनग्रहणम् अपि पूजार्थम् इत्युक्ते न च इष्टापत्तिः संस्कर्ता इति त्रिसकारपर कैयट हरदत्तादिग्रन्थविरोधात् स्वग्रन्थविरोधात् च। संस्कर्ता इति स्थिते अनचिच इति द्वित्वेन सकारत्रयं साध्यते सर्वैः वैयाकरणैः। तत्र स्क इति वर्णत्रयस्य संयोगः अस्ति। यदि त्रिप्रभृतिषु शाकटायनस्य इति द्वित्वनिषेधः नित्यः तर्हि अत्र तृतीयः सकारः न स्यात्, किन्तु सर्वैः प्रदर्श्यते। अतः शाकटायनग्रहणं पूजार्थम् इति न, एवमेव आचार्यग्रहणमपि पूजार्थम् इति न। अत एव प्रातिशाख्यभाष्येऽपि आत्वारथम् इति मन्त्रे तकारस्य द्वित्वविकल्पः उदाहृतः। आत्वा दीर्घात् परस्य तकारस्य द्वित्वं विकल्पेन भवति इति उदाहरणं दीयते। माधवेन च आस्ते इत्यत्र सकारस्य द्वित्वविकल्पः उक्तः। अतः पूजार्थकत्वं नास्ति, विकल्पसाधनार्थमेव आचार्याणां नामग्रहणं, तदपि नावश्यकम् अनचिच इति द्वित्वविधायकसूत्रस्यैव वैकल्पिकत्वात् इति सिद्धान्तः। तेन किं भवति, धात्रंशः इत्यत्र तकारस्य द्वित्वं भवति। धा इति आकारात् परस्यापि तकारस्य द्वित्वं विकल्पेन भवत्येव। ततः धात्रंशः धात्रंशः इति रूपद्वयं सिद्ध्यति. Any questions from last class? There is a question by Narayan. If we don't accept the Kayyatamata of Anuvritti of Va, then we don't have a problem in Panini Sutras. Yes, there is no problem, as in the three sutras will then be essential. If we don't, if Erono Nasikeno Nasikova Ityataha Vagrahanasya Anuvrittihi Yadi Nangi Kriyate, Tarhi Eta Sutra Trayam Avashyakam. Sat vikalpam vikalpaha siddhyati tena. But then, yeah, I mean, we'd have to find a way of accounting for forms where there is no dvitva. Because if anachita is compulsory, then it means that unless it falls under the range of these three sutras, yatra dvitva nishedhaha vikalpena uchyate, tad atiritya anyatra sarvatya dvitvam nityam syat. Tuna drishyate dvitvarahitani rupanyapi santi ata eva vagrahanam anuvartyate. So, and if you look at the Shastri writings, you will find that people prefer, at least traditional scholars prefer to use the form with dvitva rather than without dvitva. But the forms without dvitva are seen everywhere, even from olden days. But yes, if anachita is not vikalpa, then in these three sutras will make the nishedha vikalpa. Any other questions? When we move on, Sthanivadadesho Nalvidhau iti Agrimam Sutram. Does anybody remember the prasanga in which this sutra was brought in the Siddhanta Kaumudi? Kimartham idam sutram upanyastam kim sadhyate tena? Sudhubhasya ityatra sudhuyu upasya iti yanadeshe krute sthanivadbhavasya prasaktihi dvittvam anasicha ityanena dhatarasya dvittvam karaniyam tatra sthanivadbhavasya prasaktihi astiva iti vicharyate dikshitaihi. Can anybody explain that thing shortly? What is it that Rikshita brings in, and what is his answer? Adeshah sthanivatsyat natu sthanyalashraya vidhau iti Siddhanta Kaumudyam sutrarthah idam atidesha sutram. Okay, this is one of the sutras which is an atidesha. That is, you impose the properties of one on the other. Sthanivatu adeshah. Adesha will be like sthani. Arthat sthani dharmaha adeshe atidishyante. The properties of the sthani are imposed on the adesha. Natu sthanyalashraya vidhau. सूत्रद्वयं स्थानिवदादेशः अनल्विधौ इति निषेधः किमर्थं कः प्रसङ्गः सिद्धान्तकौमुद्यां शुद्ध्युपास्यः इत्यत्र यणादेशे कृते अनसि च इत्यनेन धकारस्य द्वित्वं क्रियते सुध् य अतः परस्य यरः अतः उकारात् परस्य यरः नाम धकारस्य द्वे वा स्तः न तु अचि अग्रे यकारः अस्ति सः न अच् तस्मात् धकारस्य द्वित्वं क्रियते तत्र स्थान्यवदादेशः इत्यनेन यकारस्य ईकारत्वं सम्पाद्यते सो इफ् वि अप्लै स्थानिवद्भावः आदेशः नाम यकारः स्थानिवत् नाम ईकारवत् ईकारस्य स्थाने यकारादेशः कृतः स्थानिवत् ईकारवत् स्यात् ईकारवत् नाम अत्र अच्त्वम् ईकारनिष्ठः अच्त्वधर्मः अत्र अतिदिश्यते द प्रापर्टि आफ् एन् अच् आफ् बीङ्ग् एन् अच् इस् ब्रोट् ओवर् फ्रम् द स्थानि ईकार टु द आदेश which means yakara can be treated as an ach so if yakara is an ach anachita iti dvitvam na bhavati etohi anachi achi pare dvitvam na bhavati ekarah sthanivadbhavena yadi ach tarhi hakarasya dvitvam na bhavati kila iti akshepah dikshitaihi uktah nachaiha yakarasya sthanivadbhavena achtvena द्वित्वनिषेधः शङ्क्यः अनचि च इति द्वित्वनिषेधः शङ्क्यः अनल्विधौ तत्रैव अनल्विधौ इति निषेधः अस्ति स्थानिवदादेशः अनल्विधौ अल्विधौ स्थानिवद्भावः न भवति अल्विधिः नाम स्थान्यलाश्रयविधिः यत्र एकम् अलम् आश्रित्य विधिः प्रवर्तते सो वेन् द कार्य विच् यु आर् डूयिङ्ग् डिपेण्ड्स् आन् अ सिङ्गल् लेटर् Al is a letter. So when it depends on a single letter, then there is no sthanivadbhava. Now the thing we are trying to do is the dvitva nishedha. Dvitva nishedha ha, achi, achrupam ekam alam ashritya pravartate. Ataha asmin vidhau sthanivadbhava ha nasti, dvitvam bhavatyeva iti uttaram. So that is the prasanga of the entire sutra in the Siddhanta Kaumudi. So there, we do not understand where does sthanivadbhava actually apply sthanivadbhavah atra bhavati va iti prashnam utthapya na bhavati iti uttaram dattam kintu kutra bhavati sthanivadbhavah iti uttaram tatra na diyate sthanivadadeshah atra to asti sthanivadadeshah iti pratike dhatvanga krut tadhitavya suptim padadeshah iti prachoktam प्रक्रियाकौमुद्यां किमुच्यते स्थानिवदादेशः इत्यत्र कीदृशः आदेशः इति निर्णीयते धातु अङ्ग कृत् तद्धित अव्यय सुप् तिङ् पदादेशाः पदानाम् आदेशाः सो आदेशस् फार् दीस् आदेशस् फार् धातु अङ्ग कृत् तद्धित अव्यय सुप् तिङ् पद एतेषाम् आदेशाः स्थानिवत् स्युः इति प्रक्रियाकौमुद्याम् उक्तं रामभद्रदीक्षितेन सो नौ हि दीक्षित ट्रैस् टु सी इफ् दिस् इस् एसेन्शियल् दीक्षितानां मते आदेशः आदेशमात्रं सर्वेपि आदेशाः स्थानिवद्भवन्ति इति उच्यते प्रक्रियाकौमुद्यां तु एते आदेशाः इति उक्तं तस्य किं प्रयोजनं किं तत् परिगणनम् उदाहरणमात्रं वा Is it a parigana? Parigana, as in saying, only adeshas of these eight. Dhatvanga krittadhita avya supting padana meva adeshaha sthanivad bhavanti iti va. Udaharana matram va. Athava etadrishaha adeshaha iti udaharanam va. Iti prashnaha. Nadyaha. Adyaha nama pariganam iti vaktum na shakyate. अर्थात् एतेषामेव आदेशाः स्थानिवद्भवन्ति न तु अन्ये आदेशाः इति वक्तुं न शक्यते किमर्थं सिच् क्स चङ् अङादीनां श्नादेशस्य शानचः च असङ्ग्रहापत्तेः सो विच् मीन्स् दीस् आदेशस् विल् बि एक्स्क्लूडेड् फ्रम् द पर्व्यू आफ् दोस् सिच् क्स चङ् अङ् लुङ्लकारे If you look at the lunglakara prakriya of dhatus in tigantas, chli lungi. Chli iti vikarana pratyaha vidhiyate lunglakare sarvebhyaha dhatubhyaha. Okay, for all dhatus, you add chli as the vikarana pratyaya in lung. For that chli, there are various adeshas which are given. चले है सिच इतने न चि प्रत्यय स्थाने सिच इत आदेश क्रिय थे चल गुवधानित क्स इतने न चले है क्स आदेश निश्रिदृसृभ्य कर्तरी चंग इतने न चंग अस्यति वक्ति ख्यातिभ्य अंग इतने न अंग चिन्ते पद इतने न चिन्न इत्यादय आदेश चले है सिच क्स चंग अंगादीना आदिपतेन चिनादीनां ग्रहणम् सो ऑल दीज आर आदेशस फॉर सिच नाउ दिस सॉरी ऑल दीज आर आदेशस फॉर च्ली नाउ च्ली इज नॉट इंक्लूडेड अंडर दैट धातु व्हाट इज दैट धातु अंग कृत तद्धित अव्यय सूक्ति पदादेशाः धातु अंग इट इज नॉट अ धातु इट इज नॉट एन अंग इट इज नॉट कृत नॉट तद्धित Not avyaya, not pada, none of those. Okay, it does not fall under any of those. Sup ting pada adeshaha. It is not sup or ting. So, which means that this adesha will not be sthanivat. Right? Yadi pariganam dhatvangadinam adeshaha eva sthanivat bhavanti iti yadi pariganam kriyate tarhi chlehe adeshaha dhatvadishu na antar bhavanti. Tathasati kim bhavati sthanivat bhavaha nasti. इत्युच्यते कः दोषः तेषां स्थानिवत्त्वाभावे इफ दे आर नॉट लाइक स्थानिवत् इफ दे आर नॉट लाइक द स्थानी दैट इज चिली स्नेहे धर्मः यदि नारोप्यते आदेशेषु अवादिष्टाम इत्यादिषु इट न स्यात् वदव्यक्तायां वाचि इति धातुः तस्मात् लुङ् लकारः अडागमः क्रियते सो तिप्तस्थि द्विवचने प्रथम पुरुषे द्विवचने तस् प्रत्ययः तस्य ताम आदेशः तस्थस्थमिवां तान्तन्तामः इति अवदताम इत्यस्ति इदानीं च्ली च्ली लुङि इत्यनेन लुङ्लकारे परे धातोः च्ली प्रत्ययः क्रियते सो च्ली इज अ प्रत्यय इट इज अ विकरण प्रत्यय च्लेः सिच् इत्यनेन च्ली प्रत्ययस्य स्थाने सिच् इत्यादेशः क्रियते सो सिच्ची सकारः शिष्यते अवद सु ताम वदव्रज हलन्त्यस्य अचः इत्यनेन वृद्धि वद इति स्थिते वाद इति भवति अवाद सु ताम इदानीं अत्र अर्धधातुकस्य ड्वलादेः इत्यनेन इडागमः करणीयः वी नीड टू अप्लाई इट ऑन दिस सिच अवादिष्टाम इति साधयितुं इडागमः करणीयः इडागमः कस्य भवति अर्धधातुकस्य वलादेः अर्धधातुकस्य भवति अर्धधातुकत्वं नाम किम् अर्धधातुकं शेषः तिंशित् सार्वधातुकं अर्धधातुकं शेषः धात्वधिकारे विहिताः तिङ् प्रत्ययाः षित् प्रत्ययाश्च सार्वधातुकसंज्ञां प्राप्नुवन्ति तदतिरिक्ताः सर्वेऽपि धात्वधिकारोक्ताः प्रत्ययाः अर्धधातुकाः सो अ प्रत्यय विच इज एडेड ऑन अ धातु अंडर द धात्वधिकार विल बी अर्धधातुक अदर दैन थिंग एंड शिप नौ चिली प्रत्यय अर्धधातुक प्रत्यय चिली लुंगि इत्यनेन विहितः चिली प्रत्यय अर्धधातुक ओके बिकॉज इट इज अ प्रत्यय विच इज बीइंग एडेड टू द धातु नौ इफ सिच हैज टू बी ट्रीटेड एज एन अर्धधातुक वी नीड स्थानिवद् भाव चिली प्रत्ययस्य स्थाने विहितः सिच प्रत्ययः स्थानिवद्भावेन अर्धधातुकः भवति अर्धधातुकत्वे सति अर्धधातुकस्य ड्वलादेः इत्यनेन इडागमः सिद्ध्यति सिच् इज नॉट डायरेक्टली द प्रत्यय विच इज एडेड टू द धातु च्ली इज द प्रत्यय एंड सिच् इज एन आदेश अतः स्थानिवद्भावेन अर्धधातुकत्वे सत्येव इडागमः सिद्ध्यति यदि स्थानिवद्भावः नास्ति तर्हि अवादिष्टाम् इत्यत्र इडागमः न स्यात् आल्सो किञ्च स्ल्यादेशानां क्सादीनां स्थानिवद्भावेन प्रत्ययत्वे लशक्वतद्धिते इत्यादिभिः ककारादीनां इत्सम्या सिद्ध्यति नौ च्ली इज द प्रत्यय एंड क्स एटसेट्रा द आदेश क्स प्रत्यये ककारस्य इत्सम्या इष्यते लशक्वतद्धिते प्रत्ययाद्याः लशकवर्गाः इत्सम्यकाः स्युः सो लकार शकार एंड कवर्ग At the beginning of a pratyaya will be treated as it. Now, if ksa does not have sthanivad bhava, yadi sthanivad bhava nasti, tarhi ksadinam, ksadishu kakaradinam itsamya nasyad. So, since it is, we are not treating it as a अश्ली दशकोतधिते इत्यादिभिः इत्सम्या न स्यात्। सो स्थानिवत्त्वाभावे इत्वं न स्यात् इत्यादयः दोषाः। सो इफ इट इज अ परिगणन, यदि धात्वङ्गकृत्तधित इत्यादि परिगणनं, तर्हि च्ल्यादेशानां सिजादीनां स्थानिवद्भावः न भवति, स्थानिवत्त्वाभावे अवादिष्टाम् इत्यत्र इडागमो न भवति, ककारादीनाम् इत्थम्या च न सिध्यति इति दोषद्वयम्। श्नादेशस्य शानचः च अग्रहणापत्तिः इत्युक्तम्। हलः श्नः शानझौ इति सूत्रेण श्नः श्ना प्रत्ययस्य स्थाने शानच् इति आदेशः विधीयते, हलः परस्य श्ना प्रत्ययस्य स्थाने शानच् इति आदेशः क्रियते। नौ दिस् इस् आल्सो अ विकरणप्रत्यय श्ना इति क्रियादिभ्यः श्ना, क्रियादिगणे ये धातवः पठिताः तेभ्यः श्ना शपं बाधित्वा श्ना इति विकरणप्रत्ययः विधीयते, क्रीणाति जानाति इत्यादिषु। श्ना प्रत्ययः धात्वादिषु नान्तर्भवति। अगेन् दिस् इस् अ विकरण विच् इस् नाट् इन्क्लूडेड् अण्डर् धातु अङ्ग कृत् तद्धित अव्यय सुप्तिङ् पद, एतेषु नान्तर्भवति, तथा सति अत्रापि किं न स्यात्, स्थानिवद्भावः न स्यात्। तर्हि अत्रापि शकारस्य इत्थं न भवति, शानच् इत्यत्र शकारस्य लशक्वदधिते इत्यनेन इत्संज्ञा कर्तुमिष्यते, स्थानिवत्तस्य अभावे प्रत्ययत्वं नास्ति इत्यतः श्नः शानच् श्ना प्रत्ययः तस्य स्थाने शानदादेशः विधीयते, तस्य प्रत्ययत्वं नास्ति इति चेत् इत्त्वं न भवति इति दोषः। सो अतः परिगणनम् इति वक्तुं न शक्यते। अस्तु उदाहरणमात्रम् इति चेत् न अन्त्यः, उदाहरणमात्रम् इत्यपि वक्तुं न शक्यते। अव्ययस्य अङ्गपदाभ्यां पृथग्ग्रहणवैयर्थ्यात् धातु धातु अङ्ग कृत्तद्धित अव्यय सुप्तिङ् पदादेशाः इत्यस्ति, धातु अङ्ग कृत्तद्धित अव्यय इत्यस्ति, अव्ययग्रहणं किमर्थम्? अन् अव्यय विल् ईदर् बि एन् अङ्ग, ऐ मीन् विल् बि बोत् अन् अङ्ग एण्ड् अ पद। अव्ययम् अव्ययात् किं क्रियते, सुप्रत्ययः क्रियते, अव्ययादाप्सुपः इत्यनेन तस्य सुप्रत्ययस्य लोपः भवति, सुप्रत्ययस् डिलीटेड् ओन्ली द प्रकृति विल् रिमेन्, इट् इस् अन् अङ्ग वित् रेफरेन्स् टु द सुप्रत्यय, और् इफ् यु टेक् द प्रकृति लक्षण फर् द डिलीटेड् सुप्रत्यय इट् इस् आल्सो ए पद। सो अङ्गपदाभ्यां पृथक् अव्ययग्रहणस्य वैयर्थ्यं, यु डोण्ट् नीड् टु टेक् आर् यु डोण्ट् नीड् टु टेल् अन् अव्यय सेपरेट् फ्रम् अङ्ग एण्ड् पद। अव्ययस्य अङ्गपदाभ्यां पृथक् ग्रहणवैयर्थ्यात् there is no example which you can give only for an avyaya which is neither an anga nor a pada, any example you give will always be covered either under anga or under pada, tatha sati avyaya grahanam kimartham vyartham, you cannot find an example for that avyaya, avyayam angam api bhavati pratyaya lakshanena padam api bhavati ataha tat prithaktaya grahanam vyartham prastutya iti vruttikaroktam तदुदाहरणमपि मन्दम्। किम् उदाहरणं दीयते अव्ययस्य इति चेत् प्रस्तुत्य इति दीयते, किं प्र उपसर्गपूर्वकस्य स्तु धातोः क्त्वा प्रत्ययः, तस्य समासे अनै पूर्वे क्त्वो ल्यप् इत्यनेन ल्यबादेशः, क्त्वा इस् लिप्वेस् बै ल्यप्, प्रस्तु क्त्वा इत्यस्ति, प्रस्तु ल्यप् इत्यनेन ल्यबादेशः क्रियते। सो ल्यपः स्थानिवत्त्वेन कृत्वे ह्रस्वस्य पितिकृति तुक् इति तुगागमः, प्रस्तु य इत्यस्ति, ह्रस्वस्य पितिकृति ल्यप् इति पित् प्रत्ययः, कृति इफ् इट् इस् अ कृत् प्रत्यय वि केन् हाव् द तुक् आगम, दट् इस् हौ इट् बिकम्स् प्रस्तुत्य, तकारः आगमत्वेन क्रियते, पितिकृति इफ् द प्रत्यय इस् अ कृत्। नौ ल्यप् इस् नाट् अ कृत् प्रत्यय बै इट् सेल्फ्, क्त्वा इति कृत् प्रत्ययस्य कृत् प्रत्ययः, तस्य स्थाने ल्यबादेशः क्रियते, तस्य स्थानिवद्भावेन कृत्वे द कृत् प्रापर्टि आफ् बीङ्ग् कृत् आफ् क्त्वा इस् बीङ्ग् इम्पोस्ड् आन् ल्यप्, सो इट् इस् पित् बै इट् सेल्फ् and it is krit by sthanivadbhava. So we have the tugagama. Okay. So lyapaha sthanivatvena kritve sasasya pitikriti tuk iti tugagama sthidhyati. So that is the example of sthanivadbhava. Sthanivatva abhave tuk nasyat. This is given as an example for an avyaya. But now he says, prastutya iti vrittikaroktam tad udaharanam api mandam. Dushtam ityarthaha. Natu suktam udaharanam. Kimartham ktva matrasya anavyayatvat. It is not an adesha for an avyaya. Ktva iti pratyasya sthane lyap iti adesha kriyate. Ktva matrasya anavyayatvat. Ktva is not an avyaya by itself. Ktvatvasun kasunaha iti sutrena. Ktvantasya avyaya samya. Pratyagrahane tadanta grahyaha ityanena tadantam grahyate. Ktva pratyayantam avyayam bhavati. Natu kevalaha pratyaha. Not just the pratyaya. Ktvanta will be an avyaya. Here the adesha is not for a ktvanta. Kevalasya ktva pratyayasyaiva adesha kriyate lyapiti. Ataha ktva matrasya anavyayatvat. So this cannot be an example for an adesha for an avyaya. Avyasya adesho na. Kincha krutvena siddhatvacha. Ktva pratyayaha krut. Ataha dhatvanga krut tadhita etyasti. Ataha krutaha adeshatvena iva atra sthanivadbhava siddhyati. Tadartham avyagrahanam napekshyate. So this cannot be an example for an adesha of an avyaya. So taking up that avyaya itself is useless because it is anga and pada. And you can also not come up with an example for it. Ataha dhatvanga krut tadhita. Avyaya supting padadeshaha iti prakriya kaumudikarena yaduchyate tat na yujyate. It is not the right way. Adeshaha sthanivatsyat. Sarvopi adeshaha sthanivat bhavati iti vachane eva laghavam iti dikshitanam matam. Ataha gimuktam adeshaha sthanivatsyat. Natu sthanyalashaya vidhau. Analvidha vitikim. Tena tasmat tasya tasmimshcha vidhau maabhut. Anal vidhihi ityasti vidhigrahanam kimartam. Sthanivad adeshaha anal analaha ityeva vaktum shakyate. Arthat alaha adeshaha nabhavati asava al adeshaha sthanivad nabhavati iti vaktum shakyate. Vidhigrahanam kimartam iti prashnasya ashayaha. Tatra samasaha chaturdha kriyate. In anal vidhi, we do a samasa in four ways. Tena, tasmad, tasya, tasmimshcha vidhau maabhut. Tena nama ala vidhihi, iti ekaha vigraha. Tasmad nama alah parasya, alaha iti panchami, alaha vidhihi. Tasya nama shashti, alaha vidhihi. Tasmin ali vidhihi, iti chaturvidhopi vigraha svikaryaha vidhau maabhut. So in all these cases, there is no sthanivadbhava, is what he says. Okay. So, because, for this, we have that analvidhi. Analvidhi grahane, chaturvidhaha apivigraha svikriyate, tatra sarvatra sthanivadbhavaha na bhavati. In all these four cases, sthanivadbhava is prevented by taking this, what? Analvidhi, the vigraha in four ways. Tatra alavidhau yatha vyudhoraskena. Alavidhau sthanivadbhavaha nabhavati ityatra kimudaharanam. Vyudhoraskena iti udaharanam diyate. Okay. Vyudham uraha yasya saha. Iti samasaha bahuvrihihi. Vyudha uras. Vyudhoras iti sthite. Uras prabhradibhyah kapu ityanena. Kap samasanta kriyate. There is a samasanta pratyaya which is added, which is kap. Vyudhoras ka ityasti. Now, once you have vyudhoras ka, sasajushoruhu ityanena ruttvam bhavati. Karavasana yor visarjaniyaha ityanena visarjaniyaha. Sopanadav ityanena sattvam kriyate. When followed by ka, pasha kalpa ka. So, because of the ka pratyaya, the visarga is replaced by sakara, vyudhoras ka. Ranim tasmat, तृतीयैकवचने ता प्रत्ययः क्रियते तस्य ताङ्गसिंहसाम् इनाच्याः इत्यनेन इनादेशः व्यूढोरस्क इना आद्गुणः इत्यनेन गुणे व्यूढोरस्केन इदानीम् अत्र नत्वं भवति वा इति प्रश्नः शुड् वी हेव् नत्व फार् दिस् नकार अट्कुप्वाङ्नुं व्यवायेपि रसाभ्यां नोनसमानपदे इत्युच्यते अत्र रेफः अस्ति तस्मात् परस्य नकारस्य अट्कुप्वाङ्नुं व्यवायेपि इत्यनेन नत्वं भवति वा इति प्रश्नः भवति वा विल् नकार बि कन्वर्टेड् टु नकार आर् नाट् किमुत्तरं नत्वं भवति वा न वा सिद्धान्ते नत्वं न भवति कुतो न भवति Why do we not have natva? Sakarasya adadisho anantarbhavat na bhavati. It is satyam. So what do we have here? Vyudho repha atrasti, nakara atrasti, tayor madhye akara sakara kakara ekara. Chattvaro varna vidyante. Tatra, ete sarvepi varnaha yadi atkupvang नुम् इत्येतेषु अन्तर्भवन्ति तर्हि णत्वं स्यात् अत्र तु अकारः एकारश्च अट् ककारः कु किन्तु सकारः एतेषु नान्तर्भवति इट् इस् नाट् अट् इट् इस् नाट् कवर्ग पवर्ग आङ् आर् नुम् अतः णत्वं न भवति इति स्थितिः सिद्धान्ते न भवति किन्तु यदि स्थानिवद्भावः क्रियते अत्र सकारस्य स्थानिवत्त्वेन विसर्गवत् स्थानिवत् सकारः कस्य आदेशः सोपदादौ इत्यनेन विसर्गस्य स्थाने सकारादेशः यदि अत्र स्थानिवद्भावः क्रियते आदेशः स्थानिवत् स्यात् तर्हि विसर्गस्य धर्मः अत्र अतिदिश्यते विसर्गः अट् विसर्ग अनुस्वार आल् द अयोगवाः दे आर् इन्क्लूडेड् बोत् अण्डर् अट् अण्ड् शर् ओके सो दट् इस् अ सिद्धान्त यद्यपि माहेश्वरसूत्रेषु तेषां ग्रहणं नास्ति तथापि अटि शरि च अन्तर्भवन्ति इति सिद्धान्तः तत्र सकारस्य स्थानिवत्त्वेन विसर्गवत् अट्त्वमाश्रित्य सो नौ इट् बिकेम् सकार बिकम्स् एन् अट् इफ् इट् इस् लैक् द स्थानि अट् वत् भवति तर्हि अट्त्वमाश्रित्य अड्व्यवाये इति णत्वं प्राप्तम् सिन्स् इट् इस् आल्सो अट् नकारस्य णत्वं प्राप्नोति स्थानिवद्भावे कृते किन्तु अला विधौ स्थानिवद्भावः नास्ति स्थानी विसर्गः अल् द स्थानी इस् अ विसर्ग विच् इस् एन् अल् अ सिङ्गल् वर्ण तेन अला व्यवधानम् आश्रित्य णत्वं प्रवर्तते अलाविधिः नाम अलाव्यवधानम् एकेन अलाव्यवधानम् आश्रित्य णत्वम् अट्कुप्वाङ्गुं व्यवायेपि इति णत्वं प्रवर्तते अतः अल्विधौ स्थानिवद्भावनिषेधात् अल्विधिः नाम अत्र अलाविधिः इति विग्रहः अलाविधौ स्थानिवद्भावनिषेधात् णत्वं न भवति सो दट् इस् वन् पर्पस् आफ् इन्क्लूडिङ्ग् अ विग्रह लैक् अलाविधिः इन् स्थानिवदादेशौ अनल्विधौ एनि क्वश्चन्स् अलः परस्य द्यौः पन्थाः हल्ङ्यादिलोपो न अलः विधिः पञ्चमीविभक्त्यन्तेन समासः तस्य प्रयोजनं वक्ष्यते पन्थाः इत्यस्ति सो आल् दिस् शुड् बी इन् ब्लाक् दिस् आर् नाट् फ्रोम् द मूल दिव् इति प्रातिपदिकात् सुप्रत्ययः क्रियते दिव औत् इत्यनेन सुप्रत्यये परे वकारस्य औकारादेशः इकोर्णसि इत्यनेन अनादेशे द्यौ इत्यस्ति अत्र औकारस्य स्थानिवद्भावेन वकारातिदेशे if there is sthanivad bhava aukaraha adeshaha aukaraha sthanivad bhavati iti adi uchyate tarhi vakaraha vakaraha iti dishyate vakaraha hal vakara is a consonant a hal so tasya haltvat halgnyabhyo dirgha sutisyapraktam hal iti sulopah prapnoti halah parasya supratyasya lopahasyat ityanena supratyaha lupyeta there should be elision of sakara if there is sthanivad bhava and aukara is treated as vakara. Ayam alah parasya vidhihi, the vidhi hal gyabhyaha iti sthani vakaraha al, tasmad alah paratvam ashritya sulopaha pravartate. We do the sulopa, which is alah para, sulopaha alah paratvam ashritya pravartate. It is an alah vidhihi. Alaha nama panchami. Okay. Alah parasya vidhihi. Tasmin vidhau sthanivad bhavaha nasti. Yeah. Alah parasya vidhau sthanivad bhava nishedhat na bhavati. So we cannot have, we will not have sthanivad. This is an example of sthanivad bhava nishedha for alah parasya vidhihi. Okay. So there is a question which says, iko enachi ityapi na bhavati. If we do sthanivad bhava for aukara, being vakara, then we can also not apply iko enachi. Okay, because it is not an ach. True, but then it won't be an example for alah parasya vidhihi. It will be an example for ali vidhihi. Achi pare yaha kriyate. So tatra sthanivad bhavahana bhavati. Okay, it is also alaha vidhihi and ali pare vidhihi. So here his intention is giving an example for alah parasya vidhihi. Adaha halgnyadi lopaha na bhavati. Halnyadi lopaha alah parasya vidhihi. So, panthaha ityapi dattam. Pathin shabdaha nakarasya pathimathiru bhuksham at ityanena akaradeshaha kriyate. Pathi a. So, there are other sutras which apply thonthaha etc. to derive panthaha. Tatra akaraha nakarasya sthane akaradeshaha kritaha. Tasya sthanivadbhavena nakarati deshe. Punaha tatrapi halgnyadi lopa syat. Very similar. If akara is treated as an akara, halgnyadina sulopaha syat, sthanivadbhavaha na bhavati. Alahparasya vidhau sthanivadbhavaha nasti. Alo vidhau dyukamaha. Alaha vidhihi atra shashti. Dyukamaha valilopo na. Jasti div kama. Iti samasaha. Divah kamaha iti yatra. So diva kama iti sthite, diva ut, padante diva, divaha ut iti adeshaha bhavati, di u kama iti asti, tatra yanadeshe dyukama iti siddhyati. Idanim, dya u kama iti asti, ukarasya sthanivadbhavena vakarati deshe, if we apply sthanivadbhava here, if we do sthanivadbhava, dya u kama ukarasya sthanivat nama vakaravat bhavati. Now this vakara is val. Okay. Sorry, this vakara is vakara. This is not valtvena. Lopo vyor vali iti kakara is val. Okay. Not vakara. Kakaraha val. Vakara yakara yoho vali pare. Padanta yoho yavayoho vali pare lopasyat. This utram. If there is a vakara in padanta. Ayam vakaraha, ukarasya sthanivadbhavena vakaratve, vali pare, kakare pare, tasya vakarasya lopasyat. It is sakshad alaha vidhihi. Vyohu lopaha, vakarasya yakarasya va lopaha, nama alaha sthane vidhihi. Kriyate, tatra sthanivadbhavaha nasti, sthani vakaraha al, tatra alaha sthane vidhihi, nama lopaha pravartate, alo vidhau sthanivadbhava nishedhat. Lopaha na bhavati dyukamaha ityatra. So this is an example for alaha vidhau sthanivadbhava nishedhaha. Ali vidhau ali vidhihi iti chaturthaha vigraha yajehe ktaha ka ishtaha hashicha iti uttvam na. All these examples are what you know as in the sutras are all which we have studied in the first part of the Kaumudi itself. Kaha ishtaha kas iti kim shabdaha tasya pratipadikam asti. We will keep it at the stage of kas. Okay. Kim ityastri supratyaha kriyate. Tatra
किमः कः इत्यनेन कादेशः कस् इत्यस्ति. यज् धातोः क्त प्रत्ययः क्रियते भूते कर्मणि क्त प्रत्ययः यज् क्त. वचिस्वपि यजादीनां किति इत्यनेन सम्प्रसारणं भवति यज् धातोः. यजादीनां किति कित् प्रत्यये परे यजादयः केचन धातवः. सो यज् इस् द फस्ट्. सो फर् दट् दर् इस् सम्प्रसारण इग् यणः सम्प्रसारणम्. यणः स्थाने इक् नाम यकारस्य स्थाने इकारः सम्प्रसारणत्वेन भवति. सो दर् इस् पूर्वरूप बै सम्प्रसारणश्च. दट् इज् त एण्ड् देन् वि डिरैव् इष्ट. ओके, दट् इस् आल् नाट् रिलेवेण्ट् फर् दिस्. ओके, वि डु षत्व एण्ड् देन् दर् इष्टत्व. सो नौ यु हाव् कस् इष्ट. ससदृशोरुः इत्यनेन ऋत्वे कर् इष्ट. इदानीं किं भवेत् इति प्रश्नः. वाट् विल् हेपन्? कर् इष्ट किं भवति? सिद्धान्ते किं भवति कर् इष्ट इति स्थिते? सिद्धान्ते कथं क इष्टः इति सिद्ध्यति. क इष्टः इति रूपमपि दत्तं. कथं साधयामः? रेफस्य विसर्गविधानं केन? हौ डु वि हाव् अ विसर्ग फर् द रेफ? सर्वसानयोर् विसर्जनीयः. खरि अवसाने च परे रेफस्य विसर्जनीयः. कुत्र अस्ति खर् अवसानं वा? इस् देर् अ खर् वर्ण आर् अन् अवसान? So what do we do? How do we derive kaishtaha? अतोरोरप्लुतारप्लुते. अतः परस्य रोहो अप्लुते. अप्लुतारतः परस्य रोहो अप्लुते अकारे परे उत्तमम्. कुत्र अस्ति अप्लुतः अकारः? अतः परस्य अतिपरे इदं सूत्रं प्रवर्तते. अतिपरत्वं नास्ति. हसि च हश् अस्ति वा? हसि च इति सूत्रेण कर्तुं हष्परकत्वमपि नास्ति. सूत्रं सूत्रमपेक्ष्यते. उत्तमं केन? सूत्रेण. उत्तममिति उच्यते चेत् अतोरोरप्लुतारप्लुते इति न भवति. हसि च इत्यपि न भवति. इकारः अस्ति अग्रे. सः न अत् नापि हश्. कामन् सूत्र वेर् एवर् वि हेव् विसर्ग लोप. अब्बा फैनलि. भो भगो अघो अपूर्वस्य योषि. स्टाण्डर्ड् सूत्र वेर् एवर् यु सी एन् lopa of a visarga. It's not a visarga lopa, but you see the lopa, it is always that. It has to be that. Bho bhago agho apurvasya yoshi ityanena rephasya sthane yakarha kriyate. तस्य लोपः कथं लोपः लक्ष्मी
लोपशाकल्यस्य
या सो लोपशाकल्यस्य इत्यनेन तस्य यकारस्य लोपः ओके सो दट इज हाउ वी हैव क इष्टः सिद्धान्ते तथा रूपं वेर एवर यू सी अ विसर्ग लोप और आई मीन इट सीम्स लाइक इट इज अपूर्व भो भगो अघो अपूर्व क इत्यत्र अकारः पूर्वत्वेन अस्ति सो भो भगो अघो अपूर्वस्य योषि इत्यनेन यत्वं यकारस्य लोपशाकल्यस्य इत्यनेन लोपः कैष्टः ओके दिस इज द ओनली सूत्र विच इज देयर फॉर वॉट वी कॉल अ विसर्ग लोप अत्र विसर्ग एव न भवति देयर इज नो विसर्ग बट वी सी इट एज एन एग्जाम्पल फॉर विसर्ग लोप हाँ सो दट इज द सिद्धांत सिद्धांते तथा भवेत् किन्तु यदि अत्र स्थानिवद्भावः स्यात् इकारस्य स्थानिवद्भावेन यकारातिदेशे इकारः आदेशः वचिस्वपि अजारीणां किति इत्यनेन यकारस्य स्थाने इकारादेशः कृतः यदि स्थानिवद्भावः तर्हि यकारः यकारः हश् सो हष्ट्वात् हशिच इत्यनेन उत्त्वं स्यात् इफ् वि अप्लै स्थानिवद्भावः हियर् देर् शुड् बि उत्त्व उकारादेश बै हशिच हशिपरे उत्त्वम् इत्यनेन उत्त्वं स्यात् किन्तु अलि विधौ हशि परे स्थानी यकारः अल् तस्मिन् अलि परे उत्त्वं विधीयते अतः अलिविधौ स्थानिवद्भावः नास्ति इति उक्तत्वात् स्थानिवद्भावनिषेधः यकारः तस्य लोपः कैष्टः इति रूपं सिद्ध्यति सो दट् इस् वै हि सेस् अलाश्रयविधौ न तु स्थान्यलाश्रयविधौ द अल् विधि देयर् इस् कम्पौण्डेड् इन् फोर् वेस् अलाविधिः अलः विधिः अलः परस्य इत्यर्थः अलो विधिः अलिविधिः सो आल् दीस् टुगेदर् हि पुट्स् इट् एस् न तु स्थान्यलाश्रयविधौ स्थानिनम् अलम् आश्रित्य यः कोऽपि विधिः केनापि प्रकारेण आश्रित्य इट् नीड् नाट् बि अ कार्य डिरेक्ट्लि फार् दट् अल् सो अलम् आश्रित्य अलाव्यवधानम् आश्रित्य वा तस्य तस्मात् परकत्वम् आश्रित्य वा अथवा तस्मिन् परे वा अथवा तस्य स्थाने यो विधिः सर्वत्र स्थानिवद्भावनिषेधः न तु स्थान्यलाश्रयविधौ अल्चैः स्थान्यवयव एव गृह्यते अण्ड् आल्सो इट् इस् नाट् स्थानिवदादेशः अनल्विधौ इत्युच्यते अल्विधिः स्थान्यल्विधौ इत्येव स्थान्यलाश्रयविधौ इति सूत्रार्थः लिखितः यत्र सः विधिः अलमाश्रयते स्थानिरूपेण अर्थात् वेन् इट् डिपेण्ड्स् आन् एन् अल् इन् द स्थानी देन् ओन्लि इट् इस् अ निषेधः आदेशः आदेशे यद्यपि अलम् आश्रित्य विधिः प्रवर्तते तथापि स्थानिवद्भावः भवति अल्चैः स्थान्यवयव एव गृह्यते तेन रामाय इत्यादौ सुपि च इति दीर्घसिद्धः राम इत्यस्मात् ङे प्रत्ययः क्रियते चतुर्थ्येकवचने ङेर्यः इत्यनेन यादेशः य आदेशः अतो दीर्घो यञि इत्यनेन दीर्घः क्रियते रामाय तत्र यञादौ सुपि दीर्घः स्यात् अदन्तस्य अङ्गस्य दिस् इस् यञ् अण्ड् इट् इस् सुप् अण्ड् देर् फोर् वि डु अ दीर्घ सो नौ फार् अतो दीर्घो यञि टु अप्लै वि हेव् टु कण्डीशन्स् यञादौ सुपि यञादित्वम् अपेक्ष्यते सुप्त्वं च अपेक्ष्यते यञादित्वं स्वतःसिद्धम् इट् इस् यकार इस् देर् सो इट् इस् आल्रेडी देर् इन् द आदेश स्थानिवद्भावेन सुप्त्वं Now we need sthanivadadeshah ityanena suptvam apekshyate. Ya is not sup by itself. Nye is sup. Ya iti na sup. Sthanivadadeshah ityanena sthanivadbhavat suptvam ishyate. Now, this atodirgho yahi is an alvidhi. Kimartham yahi yayadau supi. Yahi rupam alam ashrayate ayam vidhihi. Yahi rupam alam. अलिपरे एव अयं विधिः अलिविधिः अल्विधिः अतः अतोदीर्घो यञि इति अल्विधिः किन्तु न स्थान्यलाश्रयविधिः सो इट् डस् नाट् डिपेण्ड् आन् एन् अल् इन् द स्थानी द अल् इस् आल्रेडी प्रेसेण्ट् इन् द आदेश आदेशे विद्यमानम् अलम् आश्रित्य अयं विधिः प्रवर्तते न तु स्थानिनि विद्यमानम् अलम् नौ द स्थानिवद्भाव इज फॉर द सुप्त्व पार्ट ऑफ इट सुप् इज नॉट अल् निष्ठ इट इज नॉट प्रेजेंट इन अ सिंगल अल् इट इज प्रेजेंट इन ञे सु औज समौच्छस् ताभ्यां फिस् ञे इति ञे इति समुदाय निष्ठः धर्मः सुप्त्वं न तु अल् निष्ठः सो फॉर द स्थानिवद्भाव which we require the sup, now that is not al nishtha dharma and it depends on an al which is present in the adesha, not in the sthani. Ataha, al chaiha sthanyavayava eva grihyate, tena ramaya ityadav supicha iti dirgha siddhaha, tadvidhau hi yanyaditvam ashritam, yaicha adesha vayavaha natu sthanyavayavaha. स्थान्यलाश्रय विधौ एव निषेधः यत्र सः विधिः स्थानीभूतम् अलम् आश्रित्य प्रवर्तते तत्रैव स्थानिवद्भाव निषेधः यत्र आदेशे स्वतः विद्यमानम् अलम् आश्रित्य प्रवर्तते तत्र स्थानिवद्भाव निषेधः नास्ति अर्थात् स्थानिवद्भावः भवति सो दिस् रामाय इज एन एग्जाम्पल फॉर स्थानिवदादेशो अनल् विधौ वेर् इट् एक्चुअली अप्लैस् All the examples we saw, whether it is Sudhyupasyaha or the four examples that Dikshitar gave here, they are all for Sthanivadbhava Nishedha, where Sthanivadbhava does not apply. So where does it actually apply? One of the examples is Ramaya. Atra Sthanivadbhavena Yadeshasya Suptvam Ashritya Ato Dirgho Yanyi Ityanena Dirghaha Kriyate. Any questions? सो तदेतत् सकलम् अभिप्रेत्य आह न तु स्थान्यलाश्रय विधौ सो वेन् ही मेक्स् दट् वन् वर्ड् वेन् ही सेज् दट् स्थान्यलाश्रय विधौ सो द स्थानी इट् इन्क्लूड्स् आल् दिस् फस्ट् थिङ्ग् दट् द विधि शुड् डिपेण्ड् आन् द स्थानी अल् एण्ड् अलाश्रय विधिः डिपेण्डिङ्ग् आन् द अल् इन् एनी आफ् दीस् फोर् वेस् अला अलः परस्य अलः अलिवा सो आल् दिस् पुट् टुगेदर् ही पुट्स् इन् अ सिङ्गल् वर्ड् दट् इस् the greatness of the sutrartha of Kaumudi. Okay. How he manages to put so much into a single word. Okay. In the first reading of Kaumudi, it is impossible to appreciate all of it. But Dikshitar thinks so much into each word of sutrartha that he writes in the Siddhanta Kaumudi. That is why it is a Siddhanta Kaumudi. He puts the Siddhanta, not the argument of why it is there. It is just there. So to appreciate that, we need to go to the other text. सो तदेतत् सकलम् अभिप्रेत्य आह न तु स्थान्यलाश्रय इति किमुक्तम् आदेशः स्थानिवत् स्यात् न तु स्थान्यलाश्रय विधौ इति कौमुद्यां पङ्क्तिः एनी क्वेश्चन्स् There is just one more part left here. Ashrayanam cheha yatha kathanchit natu pradhanyenaiva ityagraha. Alam ashritya pravartate natu pradhanyenaiva. It need not be pradhana. The al in that need not be pradhana. Whether it is a visheshana or a visheshya. So both of them will do. Ashrayanam cheha yatha kathanchit natu pradhanyenaiva ityagraha. Tena prapathya ityatra. वलादिलक्षणः इट् न ओके इन् न इत्यस्ति इट् न इति छेदः किमस्ति प्र उपसर्गपूर्वकात् पठ् धातोः क्त्वा प्रत्ययः क्रियते समासे अनैपूर्वे त्वल्यप् इत्यनेन ल्यपादेशः नौ दिस् ल्यप् इफ् वि डू स्थानिवद्भाव अर्धधातुकस्य ड्वलादेः इत्यनेन इडागमः प्राप्नोति वलादेः अर्धधातुकस्य इडागमः स्यात् Nuktva is a valadi antadhatuka, whereas ya is not valadi. Now, valadehe ardhadhatukasya idagamaha vidhiyate. Valadehe iti ardhadhatukasya visheshanam. Actually, idagama is for the ardhadhatuka. So, ardhadhatuka is pradhana and valadi is apradhana. So, apradhanena alam ashritya yam vidhihi. Valadehe ardhadhatukasya iti. अप्रधानेन ऐ मीन् वल वल् अलाश्रयत्वम् अप्रधानेन न तु प्राधान्येन सो ಸೊ ಅಪ್ರಧಾನಸ್ಯಾಪಿ ಅಲಹ ಆಶ್ರಯಣೇ ಸ್ಥಾನಿವದ್ಭಾವ ನಿಷಿಧ್ಯತೆ. ಆಶ್ರಯಣಂ ತೈಹ ಯಥಾ ಕಥಂಚಿತ್ ನತು ಪ್ರಾಧಾನ್ಯೇನೈವ. ಅತಃ ವಲಾಲಿ ಲಕ್ಷಣ ಇಟ್ ನ ಭವತಿ, ದೇರ್ ಇಸ್ ನೋ ಸ್ಥಾನಿವದ್ಭಾವ ಹಿಯರ್ ಬಿಕಾಸ್ ದ ವಿಧಿ ಅರ್ಧಧಾತುಕಸ್ಯೇಡ್ ವಲಾದೇಹ ಡಿಪೆಂಡ್ಸ್ ಇಸ್ ಅನ್ ಅಲ್ ವಿಧಿ ಅಲಹ ವಿಧಿ. ಅತಃ ಅಪ್ರಾಧಾನ್ಯೇನ ಅಲಹ ಆಶ್ರಯಣೆ ಅಪಿ ವಿಧಿ ನ ಪ್ರವರ್ತತೆ. ತನ್ನಿಷೇಧಾದ್ ಇತಿ ಸ್ಥಾನಿವತ್ವ ನಿಷೇಧಾತ್ ಇತ್ಯರ್ಥಃ. ಕಾ ಪಂಕ್ತಿಃ ಇತಿ ಸ್ಥಾನಿವದ್ಭಾವೇನ ಯಕಾರಸ್ಯ ಅಚ್ತ್ವಾತ್ ಅನಚಿ ಇತಿ ದ್ವಿತ್ವ ನಿಷೇಧಃ ನ ಶಂಕ್ಯಃ ಅನಲ್ ವಿಧೌ ಇತಿ ತನ್ನಿಷೇಧಾತ್ ಇತಿ ಪಂಕ್ತಿಃ. ಸೊ ದಿಸ್ ಪ್ರಸಂಗ ಇಸ್ ಆಸ್ ಐ ಸೆಡ್ ಇನ್ ಸುದ್ಧಿಪಾಸ್ಯಃ. ಸುದ್ಧಿಪಾಸ್ಯಃ ಇತ್ಯತ್ರ ಸ್ಥಾನಿವದ್ಭಾವೇನ ಯಕಾರಸ್ಯ ಅಚ್ತ್ವಾತ್, ಸೊ ಈಕಾರ ವಿಚ್ ಇಸ್ ಅನ್ ಅಚ್, ಅನಚಿ ಇತಿ ದ್ವಿತ್ವ ನಿಷೇಧಃ ನ ಶಂಕ್ಯಃ ಅನಲ್ ವಿಧೌ ಇತಿ ತನ್ನಿಷೇಧಾತ್. ಸೊ ಸ್ಥಾನಿವದಾದೇಶ ಅನಲ್ ವಿಧೌ ಅಯಂ ಅಲ್ ವಿಧಿ ಅನಚಿ ಚ ಅಚಿಪರೇ ದ್ವಿತ್ವಂ ನ ಭವತಿ ಇತಿ ಅಲಂ ಆಶ್ರಿತ್ಯ ಪ್ರವರ್ತತೆ ವಿಧಿ ಅಲ್ ವಿಧಿ ಅಲ್ ವಿಧೌ ಸ್ಥಾನಿವದ್ಭಾವ ನಾಸ್ತಿ ಇತ್ಯತಃ ಧಕಾರಸ್ಯ ದ್ವಿತ್ವಂ ಭವತಿ ಸುಧ ಧ ಉಪಾಸ್ಯಃ ಇತಿ ಸಿದ್ಧ್ಯತಿ. ಸೊ ಇಕೋ ಎಣಚಿ, ಸೊ ಇಟ್ಸ್ ಜಸ್ಟ್ ದಟ್ if we do sthanivadbhava there would not have been dvitva. There is no sthanivadbhava, atah dvitvam bhavati sudhadha yu upasyah. So next he brings in atah parasmin purva vidhau, which we will see in the next class. Any questions?
ನಮಸ್ತೆ.
ಉಚ್ಯತಾಂ.
ಏಕಂ ಅತ್ರ ಕಿಂಚಿದಿವ ಕ್ಲೇಶಃ ಅಸ್ತಿ ತತ್ರ ವಲಾದಿ ಲಕ್ಷಣಃ ಇತಿ ವಿಷಯೆ ಪೂರ್ವ ವಿಷಯೆ ಯಥಾ ತತ್ರ ಪ್ರಪಕ್ಷೇ ಇತಿ ಉದಾಹರಣಂ ದತ್ತಂ ತತ್ ಕಿಂಚಿತ್ ಇತೋಪಿ
ಅವಗತಂ. ಪ್ರಪಠ್ಯ ಇತ್ಯಸ್ತಿ ಪ್ರ ಪೂರ್ವಕಾತ್ ಪಠಧಾತೋಃ ತ್ವಾ ಪ್ರತ್ಯಯಃ ತಸ್ಯ ಲ್ಯಬಾದೇಶಃ ಅತ್ರ ಇಡಾಗಮಃ ಭವತಿ ವಾ ಇತಿ ಪ್ರಶ್ನಃ. ಆರ್ಧಧಾತುಕಸ್ಯ ಇಟ್ ವಲಾದೇಹ ಇತ್ಯುಚ್ಯತೆ. ವಲಾದೇಹ ಆರ್ಧಧಾತುಕಸ್ಯ ಇಡಾಗಮಃ. ಯದಿ ಆರ್ಧಧಾತುಕಸ್ಯ ಇಡಾಗಮಃ ಇತಿ ಸಾಕ್ಷಾತ್ ಆರ್ಧಧಾತುಕತ್ವಂ ಸ್ಥಾನಿವದ್ಭಾವೇನ ಭವತಿ. ಕೀದೃಶಃ ಆರ್ಧಧಾತುಕಃ ವಲಾದಿಹಿ ಆರ್ಧಧಾತುಕಃ ವಲಾದಿತ್ವಂ ಅಪಿ ಅಪೇಕ್ಷ್ಯತೆ. ನೌ ದಿಸ್ ಪ್ರಾಧಾನ್ಯೇನ ಅಯಂ ಕೀದೃಶಃ ವಿಧಿಹಿ ಇತಿ ಪ್ರಶ್ನಃ. ಆರ್ಧಧಾತುಕಸ್ಯ ಇಡಾಗಮಃ ಪ್ರಾಧಾನ್ಯೇನ ಆರ್ಧಧಾತುಕಸ್ಯ ಇಡಾಗಮಃ ಕ್ರಿಯತೆ ಇತ್ಯತಃ ಅಲ್ ವಿಧಿಹಿ ನ. ಆರ್ಧಧಾತುಕ ಇಸ್ ನಾಟ್ ಅ ವಲ್, ಇಟ್ ಇಸ್ ಅ ಸಮುದಾಯ ನಿಷ್ಠ ಧರ್ಮ. ಸೊ ಪ್ರಾಧಾನ್ಯೇನ ಅಯಂ ನ ಅಲ್ ವಿಧಿಹಿ ಕಿಂತು ಕೀದೃಶಂ ಆರ್ಧಧಾತುಕಂ ಇತ್ಯತ್ರ ವಲಾದಿತ್ವಂ ವಿಶೇಷಣತ್ವೇನ ಯೋಜ್ಯತೆ. ತಚ್ಚ ವಲಾದಿತ್ವಂ ಅಲ್ ನಿಷ್ಠ ಧರ್ಮ ಅರ್ಥಾತ್ ಅಲ್ ವಿಧಿಹಿ. ಸೊ ಅಪ್ರಾಧಾನ್ಯೇನ ಅಯಂ ಅಲ್ ವಿಧಿಹಿ ನ ತು ಪ್ರಾಧಾನ್ಯೇನ. ತತ್ರಾಪಿ ಸ್ಥಾನಿವದ್ಭಾವ ನಿಷೇಧಃ ಭವತಿ. ಸ್ಥಾನಿವದ್ಭಾವ ನಿಷೇಧ ನತು ಪ್ರಾಧಾನ್ಯೇನೈವ, ಅರ್ಥಾತ್ ಪ್ರಾಧಾನ್ಯೇನ ಅಲಾಶ್ರಯಣೇ ಏವ ಸ್ಥಾನಿವದ್ಭಾವ ನಿಷೇಧ ಇತಿ ನಾಸ್ತಿ. ಯಥಾ ಕಥಂಚಿತ್ ಅಲಾಶ್ರಯಣೇ ಸ್ಥಾನಿವದ್ಭಾವ ನಿಷೇಧ ಭವತಿ ಇತ್ಯತಃ ಅತ್ರ ಸ್ಥಾನಿವದ್ಭಾವ ನಾಸ್ತಿ ಇಡಾಗಮಃ ನ ಭವತಿ. ಎನಿ ಅದರ್ ಕ್ವೆಶ್ಚನ್ಸ್? We stop here. I will upload this and the last class recordings and notes as soon as possible. Okay, please excuse me. I mean, it will take a couple of days probably, but I will do it. Yes.
Sir, what would be the vigraha?
Where?
Of sthani alashraya.
Sthani al, sthani al. ಸ್ಥಾನ್ಯಲಾಶ್ರಯ ವಿಧಿ ಸ್ಥಾನಿ ಚಾಸೋ ವಲ್ಚ ಸ್ಥಾನ್ಯಲ್ ಅಥವಾ ಅಲಾಶ್ರಯ ವಿಧಿ ಅಲ್ ಆಶ್ರಯ ಎಸ್ ಸಹ ಅಲಾಶ್ರಯ Alashraya vidhihi, anashraya vidhihi. So the sthani is added as sthanyali. Ashraya yatra, yasya, saha sthanyalashraya. Sthanyalashraya vidhihi. Dhyayam dhyayam param brahma smaram smarangurur giraha. Siddhanta kaumudi vyakhyam kurmah prodha manoramam.